ओम नमो भगवते वासुदेवाय। अथ द्विषष्टितमोऽध्यायः। राजोवाच, बाणस्य तनया मूषामुपयेमे यदुत्तमः, तत्र युद्धमभूत् घोरम् हरिशङ्करयोर्महत्। एतत् सर्वम् महायोगिन् समाख्यातुम् त्वमर्हसि। श्रीशुक उवाच, बाणः पुत्रशतज्येष्ठो बलेरासीन्महात्मनः, येन वामनरूपाय हरये दायि मेदिनी। तस्यौरससुतो बाणः शिवभक्तिरतः सदा, मान्यो वदान्यो धीमांश्च सत्यसन्धो दृढव्रतः। शोणिताख्ये पुरे रम्ये स राज्यमकरोत् पुरा, तस्य शम्भोः प्रसादेन किङ्करा इव ते मराः। सहस्रबाहुर्वाद्येन ताण्डवे तोषयन् मृडम्। भगवान् सर्वभूतेशः शरण्यो भक्तवत्सलः, वरेणच्छन्दयामास सतम् वव्रे पुराधिपम्। स एकदाह गिरिशम् पार्श्वस्थम् वीर्यदुर्मदः, किरीटेनार्कवर्णेन संस्पृशंस्तत्पदाम्बुजम्। नमस्ये त्वाम् महादेव लोकानाम् गुरुमीश्वरम्, पुंसामपूर्णकामानाम् कामपूरामराङ्घ्रिपम्। द्विसहस्रम् त्वया दत्तम् परम् भाराय मे भवत्, त्रिलोक्याम् प्रतियोद्धारम् न लभे त्वदृते समम्। कण्डूत्या निभृतैर्दौर्भिर्युयुत्सुर्दिग्गजानहम्, आद्यायाम् चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः। तच्छ्रुत्वा भगवान् क्रुद्धः, केतुस्ते भज्यते यदा, त्वद्दर्पघ्नम् भवेन्मूढ संयुगम् मत्समेन ते। इत्युक्तः कुमतिर्हृष्टः स्वगृहम् प्राविशन् नृप, प्रतीक्षन् गिरिशादेशम् स्ववीर्यनशनम् कुधीः। तस्योषा नाम दुहिता स्वप्ने प्राद्युम्नि नारतिम्, कन्या लभत कान्तेन प्रागदृष्टश्रुतेन सा। सा तत्र तम पश्यन्ति क्वासि कान्तेति वादिनी, सखीनाम् मध्य उत्तस्थौ विह्वला व्रीडिता भृशम्। बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता, सख्यपृच्छत् सखी मूषाम् कौतूहल समन्विता। कम् त्वम् मृगयसे शुभ्रूः, कीदृशस्ते मनोरथः, हस्तग्राहम् न तेऽद्यापि राजपुत्र्युपलक्षये। ऊषोवाच, दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः, पीतवासा बृहद्बाहुर्योषिताम् हृदयङ्गमः। तमहम् मृगये कान्तम् पाययित्वा धरम् मधु, क्वापि यातः स्पृहयतीम् क्षिप्त्वा माम् मृजिनार्णवे। चित्रलेखोवाच, व्यसनम् तेऽपकर्षामि त्रिलोक्याम् यदि भाव्यते, तमानेष्ये नरम् यस्ते मनोहर्ता तमादिश। इत्युक्त्वा देवगन्धर्वसिद्धचारणपन्नगान्, दैत्यविद्याधरान्, यक्षान्, मनुजांश्च यथा लिखत्। मनुजेषु च सावृष्णीन् शूरमानकदुन्दुभिम् व्यलिखद् रामकृष्णौ च प्रद्युम्नम् वीक्ष्य लज्जिता। अनिरुद्धम् विलिखितम् वीक्ष्योऽसा वाङ्मुखीरिया, सोऽसावसा वितिप्राह स्मयमाना महीपते। चित्रलेखातमाज्ञाय पौत्रम् कृष्णस्य योगिनी, ययौ विहाय सा राजन् द्वारकाम् कृष्णपालिताम्। तत्र सुप्तम् सुपर्यङ्के प्राद्युम्निम् योगमास्थिता, गृहीत्वा शोणितपुरम् सख्यै प्रियमदर्शयत्। सा च तम् सुन्दरवरम् विलोक्यमुदिताना, दुष्प्रेक्ष्ये स्वगृहे पुम्भीरेमे प्राद्युम्निना समम्। परार्घ्यवासस्रग्गन्धधूपदीपासनादिभिः, पानभोजनभक्ष्यैश्च वाक्यैः शुश्रूषयार्चितः। गूढः कन्यापुरे शश्वत् प्रवृद्धस्नेहयातया, नाहर्गणान् स बुबुधे ऊषया परितेन्द्रियः। ताम् तथा यदुवीरेण भुज्यमानाम् हतव्रताम्, हेतुभिर्लक्षयाञ्चक्रूराप्रीताम् दुरवच्छदैः। भटा आवेदयाञ्चक्रूराजंस्ते दुहितुर्वयम्, विचेष्टितम् लक्षयामः कन्यायाः कुलदूषणम्। अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो, कन्याया दूषणम् पुंभिर्दुष्प्रेक्षाया न विद्महे। ततः प्रव्यसितो बाणो दुहितुः श्रुतदूषणः, त्वरितः कन्यकागारम् प्राप्तो द्राक्षीत् यदूद्वहम्। कामात्मजम् तम् भुवनैकसुन्दरम् श्यामम् पिशङ्गाम्बरमम्बुजे क्षणम्, बृहद्भुजम् कुण्डलकुन्तलत्विषास्मितावलोकेन च मण्डिताननम्। दिव्यन्तमक्षयी प्रियया भिन्नृम्णया, तदङ्गसङ्गस्तनकुङ्कुमस्रजम्, बहवोर्दधानं मधुमल्लिकाश्रितां तस्याग्र आसीनमवेक्ष्य विस्मितः सतं प्रविष्टं वृतमाततायिभिर्भटैरनीकैरवलोक्य माधवः उद्यम्यमौर्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा सूकरयूथपोहनत् ते हन्यमाना भवनाद् विनिर्गता निर्भिन्नमूर्धोरुभुजा प्रदुद्रुवुः तं नागपाशैर्बलिनन्दनो बलिघ्नन्तं स्वसैन्यं कुपितो बबन्धः ऊषाभृशं शोकविषादविह्वला बद्धं निशम्याश्रुकलाक्षरौदिशीत्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे निरुद्धबन्धो नाम द्विषष्टितमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।